सर्वेभ्यो नमः। गुरुब्रह्मा गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र इन्द्रियाणां तत्र विषये, तत्र इन्द्रियैः यत् ज्ञानं भवति प्रत्यक्षज्ञानम् अपि, तत्र किं द्रव्यं तत्र प्रत्यक्ष अर्ह्यं भवति, नाम तत्र कस्य द्रव्यस्य प्रत्यक्षज्ञानं भवति इति विषयः प्रवर्तमानः अस्ति। अस्तु, तर्हि तत्र किञ्चित् तत्र पुनस्मरणरूपेण वदामः। तत्र वयं तत्र एतावत् लक्षणग्रन्थे, तत्र लक्षणग्रन्थस्य आरम्भः कृतः अस्माभिः। तत्र पृथ्व्याः लक्षणं, जलस्य लक्षणं, तेजसः लक्षणं, वायोः लक्षणम्, आकाशस्य अपि लक्षणं कृतम्। इदानीम् अग्रे तत्र कालस्य लक्षणं कर्तुम् इच्छामः, किन्तु तस्मात् प्राक् तत्र प्रत्यक्षम् इति ज्ञाने तत्र कस्य कस्य प्रत्यक्षज्ञानं भवति, अपि इन्द्रियाणामपि तत्र विषयः अस्ति, अपि गुणानामपि विषयः तत्र अस्ति, यतोहि तत्र इन्द्रियैः ये गुणाः ग्राह्याः इति अस्माकं मूलपाठः अस्ति। तत्र द्रव्यस्य विषये एकः विषयः वक्तव्यः, नाम तत्र नवद्रव्याणि सन्ति इति जानीमः। तत्र पृथ्वी, जलं, तेजः अपि वायुः अनित्यद्रव्याणि इति, तत्र पृथ्वी अनित्यद्रव्यं, तत्र परमाणवः नित्याः, किन्तु तत्र यद् कार्यरूपम् अस्ति, तत्र शरीरम्, इन्द्रियं, विषयः, एतत् सर्वं तत्र अनित्यद्रव्यमस्ति। किन्तु आकाशः नित्यद्रव्यमस्ति, कालः नित्यद्रव्यमस्ति, दिक्, आत्मा, मनः सर्वं नित्यद्रव्यम् अस्ति। अतः तत्र विभागः द्रव्याणि अपि नित्यद्रव्याणि इति अस्ति। अपि तत्र गुणस्य विषये वयं कुत्र स्मः इत्युक्ते, तत्र रूपरसगन्धस्पर्श इति तावत्पर्यन्तं तस्य विषये तत्र इदानीं चर्चा अस्ति। अपि तत्र रूपं केन इन्द्रियेण ग्राह्यः अस्ति रूपम् इति गुणः, कोऽपि वदति वा?
चक्षुषा।
चक्षुषा, समीचीनम्। अपि रसः? रस इति गुणः केन इन्द्रियेण? रसनेन्द्रियेण। अस्तु, गन्धः?
घ्राणेन्द्रियेण।
स्पर्शः?
त्वक्
त्वक् इति इन्द्रियं, त्वचा, तस्य ग्रहणं भवति। समीचीनं। हा, तत्र रूपम् इति केवलं तत्र चक्षुषा तस्य ग्रहणं भवति। हा, रसनं केवलं रसनेन्द्रियेण, गन्धः केवलं तत्र घ्राणेन्द्रियेण, स्पर्शः केवलं त्वचा। अतः तत्र रूपं केवलं तत्र चक्षुषा तस्य ग्रहणं भवति इति तत्र विशिष्ट किञ्चित् वैशिष्ट्यं तत्र वर्तते। तत्र संख्या इति अपि गुणः अस्ति, संख्या इति गुणः, तत्र पञ्चपुस्तकानि सन्ति इति चिन्तयामः, तत्र पञ्च इति तत्र पुस्तकेषु संख्या इति गुणः वर्तते, तत्र पञ्चपुस्तकानि सन्ति चेत् पञ्च इति गुणः तेषु वर्तते। तत्र पञ्चपुस्तकानि सन्ति इति तत्र केन इन्द्रियेण वयं ज्ञातुं शक्नुमः?
मनसा?
बहिरिन्द्रियेण भवति वा?
चक्षुषा।
चक्षुषा, केवलं चक्षुषा इति वा संख्यायाः ग्रहणम्?
चक्षुयोग मनसा।
अस्तु, मनः अस्ति, अस्तु, किन्तु बहिरिन्द्रियं केवलं तत्र चक्षुषा एव तत्र पञ्चपुस्तकानि सन्ति इति ज्ञातुं शक्नुमः वा? अथवा पुस्तकानि जानीमः किन्तु पञ्चपुस्तकानि सन्ति इति तत्र केवलं चक्षुषा एव?
त्वचा अपि भवति,
त्वचा अपि भवति खलु तत्र त्वचा। अतः तत्र सङ्ख्या इति केवलं चक्षुषा ग्राह्यः गुणः इति नास्ति. अतः रूपम् इति गुणः तु केवलं चक्षुषा ग्राह्यः, किन्तु अन्ये गुणाः तादृशाः न सन्ति. सङ्ख्या इति गुणः तत्र चक्षुषापि ग्राह्यः, अपि त्वचापि ग्राह्यः, अपि तत्र आत्मनः तत्र विशेषगुणाः सन्ति, नाम बुद्धिः, सुखदुःखः, इच्छा, द्वेषः, प्रयत्नः इति. हा, इति तत्र ते गुणाः अपि तत्र बुद्धि नाम ज्ञानम्, अपि सुखदुःखः तेषाम् अनुभवः अस्माकं भवति, तत्र ते सर्वे तत्र आत्मनः गुणाः सन्ति, किन्तु तस्य अस्माकं तत्र ज्ञानं भवति, तत्र प्रत्यक्षज्ञानम् इति भवति, किन्तु बहिरिन्द्रियैः तद्ज्ञानं न भवति इति कृत्वा तत्र चक्षुषा तत्र सुखस्य ज्ञानं भवति अथवा दुःखस्य ज्ञानं भवति इति नास्ति. अतः तत्र अन्य कोऽपि इन्द्रियम् अन्य किमपि इन्द्रियं भवेत् इति कृत्वा तस्य नाम अस्ति मनः. मनः आभ्यन्तर इन्द्रियम् अस्ति, तेन इन्द्रियेण तत्र आत्मनः गुणाः ये सन्ति तेषां प्रत्यक्षं ज्ञानम् अस्माकं भवति इति अस्ति. अपि तत्र रूपम् इति गुणः, रूपं नाम तत्र वर्णः, तत्र वर्णः शुक्लवर्णः पीतवर्णः इति लौकिकव्यवहारः अस्ति, किन्तु न्यायशास्त्रे तत्र वर्णः इति अनुक्त्वा वयं रूपम् इति वदामः. तत्र रूपम् इति शेप् इति नास्ति, किन्तु कलर् इति अस्ति. हा, अतः तत्र रूपम् इति यः रूपम् इति गुणः, तत्र कुत्र वर्तते रूपम् इति गुणः? पृथिव्यां वर्तते, जले वर्तते, तेजसि वर्तते, किन्तु अन्यत्र न वर्तते. तत्र वायु आरभ्य अन्येषु द्रव्येषु न वर्तते. तत्र रूपम् इति गुणः, अतः तस्य आश्रयः द्रव्यम् एव. अतः तत्र कुत्र रूपम् अस्ति इत्युक्ते किमपि द्रव्यं तस्य आश्रयः भवेत्, किन्तु पृथ्वी भवितुमर्हति, जलं भवितुमर्हति, तेजः भवितुमर्हति, अन्यद्रव्यं न भवितुम् अर्हति. तत्र पृथिव्यां तत्र रूपस्य सप्तविधम् अस्ति, ते सर्वे तत्र पृथिव्यां भवितुम् अर्हन्ति, किन्तु तेजसि यः रूपम् इति यः गुणः वर्तते तस्य नाम अस्ति तत्र भास्वरशुक्लरूपम्. अपि जले यत् रूपं वर्तते तस्य नाम अस्ति अभास्वरशुक्लरूपम्. तत्र भास्वर इत्युक्ते तत्र शैनिङ्ग् अथवा डाज़्लिङ्ग् इति तत्र वदन्ति. तत्र वैट् इति तत्र डाज़्लिङ्ग् वैट् रूपं तत्र तेजसः. अपि जले तत्र शुक्लरूपम् इति अस्ति अभास्वर, नाम तत्र शुक्लरूपम् अस्ति किन्तु तत् न प्रकाशते, किन्तु तत्र तेजसि यत् रूपम् अस्ति शुक्लरूपं तत् प्रकाशते. तत्र प्रकाशमाणं शुक्लरूपम्, अपि अप्रकाशमाणं शुक्लरूपम् इति अपि वक्तुं शक्नुमः. अतः तत्र तेजसि केवलं भास्वरशुक्लरूपम् एव वर्तते, अपि जले अभास्वरशुक्लरूपमेव वर्तते इति अस्ति. एतत् सर्वं केवलं तत्र पुनस्मरणार्थम्. अपि अन्यः विषयः अस्माभिः पठितः गतवर्गे, नाम परिमाणम् इति विषये. तत्र परिमाणस्य त्रैविध्यं वर्तते. तत्र परमाणुपरिमाणम् एतत् लघु अस्ति, अपि तत्र परममहत्परिमाणं बृहत् अस्ति. परममहत्परिमाणम् इत्युक्ते यस्य अपेक्षया बृहत् परिमाणं नास्ति. अतः तत्र आकाशः, कालः, दिक् एतत् सर्वं तत्र तेषां परिमाणं परममहत् परिमाणं. तत्र आकाशः, कालः, दिक् इति विभुद्रव्यम् इति वदामः, अग्रे पश्यामः. अपि यद् लघु अतिलघु नास्ति, अपि अतिबृहत् अपि नास्ति, तत् मध्यमपरिमाणम् इति तेषां व्यवहारः. नाम घटपटादयः एतत् सर्वं शरीरम्, इन्द्रियम्, एतत् सर्वं तत्र केवलम् अणु परमाणवः अपि द्वयणुकानि तेषां परिमाणं तत्र लघु इति चिन्तनम् अस्ति न्यायशास्त्रे त्रयणुकम् अपि तत् आरभ्य तत्र सर्वं तत्र मध्यमपरिमाणम् इति तेषां चिन्तनम् अपि तत्र प्रत्यक्षज्ञानं कथं भवति इति तत्र अशोकमहोदय उक्तवान् तत्र आत्मा एतत् सर्वं भवेत् इति अतः तत्र यदि तत्र प्रत्यक्षज्ञानं तत्र वयं चिन्तयामः तत्र पुस्तकं पश्यामः पुस्तकस्य प्रत्यक्षज्ञानं भवति इत्युक्ते तत्र प्रथमतया तत्र आत्मा अपि मनः तयोः मध्ये तत्र सम्बन्धः भवति संयोगसम्बन्धः भवति मनः इन्द्रियेण अत्र चक्षुषा संयोगः भवति पुनः चक्षुः अपि तत्र पुस्तकं तयोः मध्ये संयोगः भवति इति तत्र न्यायशास्त्रे चिन्तनं नाम चक्षुः इति केवलं तत्र यत् साक्षात् देहस्य अङ्गमस्ति तद् नास्ति चक्षुः इति तत्र इन्द्रियमस्ति शरीरभागः नास्ति तत्र न्यायशास्त्रे तत्र तेषां चिन्तनम् अस्ति तत्र चक्षुरिन्द्रियम् अपि पुस्तकं तयोः मध्ये संयोगः भवति तेन संयोगेन तत्र ज्ञानम् उत्पद्यते इति अतः तत्र अत्रापि केचन सम्बन्धः वर्तते येन ज्ञानम् उत्पद्यते अतः तत्र आत्मा मनः च इन्द्रियम् अपि अर्थः पदार्थः तत्र सर्वं मिलित्वा तत्र प्रत्यक्षज्ञानं तैः तत्र प्रत्यक्षज्ञानं उत्पद्यते इति अस्ति तत्र यदि तत्र त्वचा तत्र पुस्तकस्य हा वदतु महोदय
यदि चक्षुषा पुस्तकं संयोगम् अस्ति कः आश्रयः कः आधेयः
हा सत्यं महोदय तत्र अतः इदानीं तस्य विषयः मास्तु किन्तु अन्यत् उदाहरणेन तत् किमर्थम् एतादृशं चिन्तनं तेषाम् अस्ति इति वदामि तत्र यदि त्वचा तत्र पुस्तकम् अस्ति इति जानीमः तत्र पुस्तकस्य स्पर्शः भवति पुस्तकम् अस्ति इति जानीमः तत्र त्वक् अपि पुस्तकं तयोः मध्ये साक्षात् संयोगः भवति तेन संयोगेन ज्ञानम् उत्पद्यते तथैव तत्र तेषां चिन्तनं नैयायिकानां चिन्तनमस्ति तत्र चक्षुः अपि तत्र साक्षात् पुस्तकपर्यन्तं गच्छति इति तेषां चिन्तनम् अतः एव तत्र चक्षुः इति इन्द्रियम् तत्र चक्षुः अपि घ्राणेन्द्रियं रसनेन्द्रियम् एतत् सर्वं तत्र तेषां परिमाणम् अत्र अस्ति मध्यमपरिमाणे अस्ति परमाणुपरिमाणं नास्ति परममहत्परिमाणमपि नास्ति किन्तु तत्र इन्द्रियम् इति मध्यमपरिमाणम् अस्ति यतोहि तत्र चक्षुः बहु लघु अस्ति चेत् तत्र अहम् इदानीं तत्र पर्वतं पश्यामि पुस्तकं समीपे अस्ति किन्तु पर्वतं दूरम् अस्ति पर्वतः दूरम् अस्ति किन्तु चक्षुषा तावत्पर्यन्तं गत्वा तस्य ज्ञानं प्राप्तुं शक्नोति इति कृत्वा तत्र चक्षोः तत्र परिमाणं तत्र मध्यमपरिमाणं भवेत् इति तेषां चिन्तनम् अस्ति अत्र एतत् तत्र भिन्नरीत्या तेषां चिन्तनम् अस्ति वयं चिन्तयामः तत्र अस्तु तत्र प्रकाशः तत्र सूर्यात् प्रकाशः तत्र पर्वतस्य उपरि पतति ततः तत्र सूर्यप्रकाशः अस्माकं चक्षुपर्यन्तम् आगच्छति इति वयं चिन्तयामः किन्तु नैयायिकानां मतं किञ्चित् भिन्नम् अस्ति तत्र चक्षुः साक्षात् पुस्तकं वा पर्वतं वा तावत् गत्वा तस्य ज्ञानं प्राप्नोति इति तेषां चिन्तनम् अस्तु इदानीं तत्र अग्रे सरामः तर्हि इदानीं तत्र अस्माभिः एतावत् पठितं तत्र प्रतिनियतग्राह्यः गुणाः अपि तत्र ग्राहक इन्द्रियाणि अपि वयं पठितवन्तः. अपि तत्र वयम् एतद् ज्ञातवन्तः तत्र घ्राणेन्द्रियं रसनेन्द्रियम् अपि तयोः मध्ये किञ्चित् साम्यमस्ति, अपि श्रोत्रेन्द्रियं मध्ये तत्र कश्चन भेदः वर्तते. तत्र साम्यं किमस्ति इति तत्र कोऽपि वदति वा? तत्र हा योगेन्द्रमहोदय किञ्चित् वदति वा? तत्र घ्राणेन्द्रियं रसनेन्द्रियं किं साम्यमस्ति तयोः मध्ये? किं गुणं गृह्णाति घ्राणेन्द्रियं? किं गुणं
घ्राणेन्द्रियेण गन्धस्य ग्रहणं भवति, रसनेन्द्रियेण रसस्य ग्रहणं भवति.
हा, अपि साम्यं किम् अस्ति? केवलं
प्रायः एक एव गुणस्य ग्रहणं.
हा, न तु आश्रयस्य इति खलु?
न तु आश्रयस्य,
हा इति. अतः तत्र तयोः मध्ये साम्यं. श्रोत्रेन्द्रियम् अपि तथा. आकाशे विद्यमानः शब्दः यः अस्ति तस्य ग्रहणं श्रोत्रेन्द्रियेण भवति, किन्तु श्रोत्रेन्द्रियम् आकाशस्य प्रत्यक्षज्ञानं न जनयति इति. तत्र साम्यमस्ति किन्तु भेदः अपि वर्तते. तत्र भेदः कः इति अन्य कोऽपि वदति वा? तत्र घ्राणेन्द्रियं, तत्र गूढः इति उदाहरणं स्वीकृतम् आसीत्. तत्र शोभा भगिनी वदति वा? तत्र घ्राणेन्द्रियं रसनेन्द्रियं, तत्र गुणमात्रग्राहकम् इन्द्रियं, श्रोत्रियेन्द्रियमपि तथा, किन्तु अत्र विभागः वर्तते. नाम श्रोत्रेन्द्रियं भिन्नम् अस्ति घ्राणेन्द्रियं रसनेन्द्रियं, तयोः मध्ये साम्यमस्ति किल? हा
आं महोदय, साम्यमस्ति द्वयोः अपि. यथा तत्र घ्राणं गन्धस्य, रसना रसस्य च इति जनयति, प्रत्यक्षं जनयति इति. इत्युक्ते गुणयोः प्रत्यक्षज्ञानं भवति गुणमात्र
समीचीनं
गुणमात्रस्य. किन्तु श्रोत्रेन्द्रियस्य विषये तत्र शब्द तत्तु शब्दस्य एव प्रत्यक्षं जनयति इति. गुणमात्रं
तत्रापि,
तत्रापि गुणमात्रं, किन्तु आश्रयस्य न इति. आश्रयस्य आकाशस्य अतीन्द्रियत्वात् इति.
हा, तत्र समीचीनम्. अत्र किमस्ति? अत्र आश्रयः आकाशः अस्ति, अत्र तु तत्र पृथ्वी, तत्र गन्धः इति गुणं, गन्धः पार्थिव पदार्थः, तस्य ग्रहणम् आश्रयस्य ग्रहणम् अन्येन इन्द्रियेण भवितुम् अर्हति. नाम गूढः, हा, अतः तत्र अत्र आश्रयः अतीन्द्रियः नास्ति. अत्र आश्रयः अतीन्द्रियः नास्ति, किन्तु अत्र आश्रयः अतीन्द्रियः अस्ति. अतः तत्र विभागः अस्ति. समीचीनं, हा समीचीनं भगिनी, धन्यवादः. अस्तु, इदानीम् अग्रे सरामः तर्हि. तत्र प्रत्यक्षयोग्याः द्रव्य तत्र इति अस्ति. तत्र घटपटादयः प्रत्यक्षयोग्याः इत्युक्ते किम् इति अग्रे पठामः. अपि तत्र अस्मिन् चित्रे तत्र किं किं लिखितमस्ति तस्य विवरणमपि अद्य पश्यामः तर्हि. अस्तु, तत्र हा, नीता भगिनी आरम्भं करोति वा? तत्र द्रव्यप्रत्यक्षं केन भवति इति.
द्रव्यप्रत्यक्षं केन भवति? घटे उद्भूतरूपम् अस्ति, परमाणुपरिमाणातिरिक्तं मध्यमपरिमाणं च वर्तते इति. तस्य चक्षुषा त्वचा च प्रत्यक्षं भवति.
तावत्पर्यन्तं किञ्चित् वदतु भगिनि तर्हि.
अत्र घटे उद्भूतरूपमस्ति, प्रत्यक्षं वयं तस्य ज्ञानम् अनुभवामः.
रूपम् रूपम् अस्ति घटस्य, रूपमस्ति. उद्भूतरूपम् इत्युक्ते तत्र उद्भूतरूपं दृश्यमानः 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 रूपं हा दृश्यमानः दृश्यमानः रूपम् इति हा अतः तत्र उद्भूतरूपं कुत्र कुत्र वर्तते इति अग्रे पश्यामः किन्तु घटे तत्र उद्भूतरूपं दृश्यमान सम्यक् दृश्यमानः रूपम् अस्ति अपि
अपि परमाणुपरिमाण अतिरिक्त परमाणुपरिमाण भिन्नः
भिन्नं
भिन्नं मध्यमपरिमाणं च वर्तते इत्युक्ते तत्र परमाणुपरिमाणम् इति नास्ति मध्यम
मध्यमपरिमाणम् अस्ति तत्र
अतिलघु इति
अतिलघु
इति नास्ति न अतिबृहत् वा न अतिलघु
मध्यमपरिमाणम् अतः तत्र हा इति द्वे अपि वर्तेते हा तत्र उद्भूतरूपमपि परमाणुपरिमाणं भिन्नपरिमाणं नाम मध्यमपरिमाणम् अपि वर्तते वर्तेते घटे अतः तस्य
चक्षुषा त्वचा च प्रत्यक्षं भवति
हा प्रत्यक्षम् इत्युक्ते किं प्रत्यक्षम् इत्युक्ते
प्रत्यक्षम् इति तत्र
कीदृशपदार्थः प्रत्यक्षम् इति यदि वदामः प्रत्यक्षम् इति वदामश्चेत् तत्र किं भवति प्रत्यक्षम् इत्युक्ते ज्ञानं खलु प्रत्यक्षम् इति ज्ञानम् इत्युक्ते तत्र ज्ञानं बहुविधज्ञानं भवितुमर्हति किन्तु प्रत्यक्षज्ञानम् इति विशिष्टज्ञानम् इन्द्रियेण प्राप्तम् इन्द्रियेण उत्पादितं ज्ञानम् तत्र मनस् तत्र चक्षुषा त्वचा वा उत्पादितं ज्ञानम् अस्ति प्रत्यक्षज्ञानम् ज्ञानं नाम बुद्धिः बुद्धिः इति गुणः अस्ति गुणः आत्मनि वर्तते आत्मनः गुणः अतः आश्रयः अस्ति आत्मा अतः तत्र प्रत्यक्षज्ञानं कुत्र भवति आत्मनि भवति अतः प्रत्यक्षज्ञानं जनयति तत्र भवति अतः घटस्य प्रत्यक्षज्ञानं आत्मनि भवति इति किमर्थं परमाणुपरिमाणं समीचीनमस्ति मध्यमपरिमाणम् अस्ति अपि तत्र उद्भूतरूपम् अपि अस्ति उद्भूतरूपं नाम दृश्यमानरूपम् अतः द्वयमपि अस्ति इति अतः तत्र प्रत्यक्षम् इति वदामः तत्र प्रत्यक्षम् इति लौकिकव्यवहारे प्रत्यक्षं नाम तत्र चक्षुषा तत्र यत् द्रष्टुं शक्नुमः तत् प्रत्यक्षम् इति व्यवहारः भवति लौकिकव्यवहारः किन्तु शास्त्रीयव्यवहारे तत्र प्रत्यक्षं नाम इन्द्रियेण यद् यस्य ज्ञानं भवति तद् ज्ञानं केवलं चक्षुषा इति नास्ति त्वचा अपि ज्ञानं भवति चेत् प्रत्यक्षज्ञानम् इति वदामः समीचीनं धन्यवादः
ज्ञानम् इन्द्रियेण जनयति
भवति हा इन्द्रियं यत् ज्ञानं जनयति इन्द्रियज ज्ञानम् इन्द्रियजम् यत् ज्ञानम् इन्द्रियजम् अस्ति नाम इन्द्रियेण जातं ज्ञानं तद् ज्ञानमस्ति प्रत्यक्षं ज्ञानम् योगेन्द्रमहोदय प्रश्नः
आं महोदय चक्षुषा यद् ज्ञानं भवति तत् प्रत्यक्षं भवति परन्तु यदा चक्षुः नास्ति तदा त्वचा यद् ज्ञानं भवति तत्तु प्रायः अनुमानम् एव अनुमानज्ञानं भवति
न तदपि प्रत्यक्षम् इत्येव अस्ति महोदय तद् तदपि प्रत्यक्षमेव तत्र घ्राणेन्द्रियेण यद् गन्धस्य ज्ञानं भवति तत् चक्षुषा न भवति किन्तु तदपि प्रत्यक्षमेव अस्ति इति खलु
तत्तु घ्राणेन्द्रियं तु ज्ञातुं शक्यते परन्तु त्वचया यदा स्पर्श भवति घटः अस्ति इति अनुमानं एव करोमि परिमाणस्य अपि अनुमानम्
अहं सर्वस्य ज्ञानं भवति इति न वक्तुम् इच्छामि किन्तु यत्किमपि ज्ञानं त्वचा भवति तस्य नामकरणम् अस्ति प्रत्यक्षम्। प्रश्नः भिन्नः, तत्र किं किं तत्र प्रत्यक्षज्ञाने अन्तर्भूतम् अस्ति इति तत् भिन्नः प्रश्नः, भिन्नः प्रश्नः अस्ति। किन्तु यत् ज्ञानं त्वचा त्वचा भवति अथवा तत्र चक्षुषा भवति, घ्राणेन्द्रियेण भवति, रसनेन्द्रियेण भवति, श्रोत्रेन्द्रियेण भवति, तत् सर्वं प्रत्यक्षज्ञानम्। अपि तत्र मनसापि तत्र प्रत्यक्षज्ञानम् अपि भवति, किन्तु अत्र किमस्ति प्रत्यक्षम् इति केवलं बहिर् इन्द्रियेण तत्र यद् ज्ञानम् अस्ति तत्र प्रत्यक्षम् इति उक्तमस्ति। यतोहि तत्र अत्र प्रत्यक्षयोग्याः इति केवलं तत्र बहिरिन्द्रियेण यस्य ज्ञानं भवति तस्य तत्र विवरणम् अत्र अस्ति, प्रत्यक्षयोग्यः अथवा न प्रत्यक्षयोग्यः केवलं बहिरिन्द्रियैः गृह्यते चेत् तस्य ज्ञानं भवति चेत् प्रत्यक्षयोग्यः अस्ति सः पदार्थः, बहिरिन्द्रियैः न गृह्यते चेत् तस्य ज्ञानं न भवति चेत् सः न प्रत्यक्षयोग्यः पदार्थः इति अत्र चित्रे अस्य पदस्य विवरणं तदस्ति। अतः तत्र घटः तस्य प्रत्यक्षज्ञानं भवति बहिरिन्द्रियेण तस्य ज्ञानं भवति चक्षुषा वा त्वचा वा। समीचीनं योगेन्द्र महोदय,
आम् अवगच्छामि।
अस्तु तर्हि अग्रे तत् हा अस्तु, प्रेमलता भगिनी अग्रे पठितुम् इच्छति वा?
आम् महोदय, कुतः?
परमाणु इति आरभ्य
परमाणुद्वयणुकयोः उद्भूतरूपमस्ति, परन्तु परमाणुपरिमाण अतिरिक्तपरिमाणं न वर्तते इति, तयोः प्रत्यक्षं साक्षात्कारः न भवति इति।
तावत्पर्यन्तं किञ्चित् वदतु भगिनि तर्हि।
परमाणुद्वयणुकयोः उद्भूतरूपमस्ति इति इति अत्र ये तत्र टिप्पणी अधोभागे दत्तमस्ति, द्वाभ्यां परमाणुभ्यां जायमानः आद्य अवयवी इति। एतत् द्वयणुकपरिमाणम् अपि एतद् भवति, तस्य अवयवी भवति अत्र तस्य उद्भूतरूपम् अस्ति, परन्तु द्वयणुकं केवलं परमाणुपरिमाण नास्ति, द्वयणुकमस्ति, अतः तत्र उद्भूतरूपमस्ति इति आद्य अवयवी इति अत्र टिप्पणी यत्र अस्ति सद्य तद्वारा अवगम्यते। उद्भूतरूपमस्ति परन्तु परमाणुपरिमाण अतिरिक्तपरिमाणं न वर्तते इति, तयोः प्रत्यक्षं साक्षात्कारः न भवति।
अतः तत्र किम् उक्तं, तत्र पार्थिवपरमाणु इति स्वीकुर्मः, पार्थिवपरमाणु एकः परमाणु अस्ति, इदानीं तस्य प्रत्यक्षज्ञानं भवति अथवा न भवति?
परमाणुपरिमाण अस्ति इति, परमाणुपरिमाणभिन्नपरिमाणं नास्ति इति कृत्वा तस्य प्रत्यक्षज्ञानं न भवति
हा तत्र परिमाणं कीदृशं भवेत्? परमाणुपरिमाणं भिन्नं परिमाणं भवेत्, किन्तु परमाणु तस्य परिमाणं तु परमाणुपरिमाणमेव, अतः तत्र तस्य प्रत्यक्षम् अत्र न भवितुम् अर्हति। तत्र प्रत्यक्षयोग्यः कः इत्युक्ते, यस्मिन् उद्भूतरूपमपि अस्ति अपि परमाणुपरिमाणम् अतिरिक्तपरिमाणं भवेत् इति अस्ति। अतः तत्र पूर्वस्मिन् पुटे तत् दत्तम् आसीत्, तत्र प्रत्यक्षयोग्याः के इत्युक्ते उद्भूतरूपमपि अस्ति परमाणुपरिमाणम् अतिरिक्तपरिमाणमपि अस्ति चेत् एव एव तत्र भवति. अत्र अत्र किं दत्तमस्ति, तत्र परमाणुद्वयणित्रयोः उद्भूतरूपम् अस्ति, परन्तु परिमाणं तत्र समीचीनं, तत्र यत् आवश्यकं तादृशं परिमाणं नास्ति. अतः तयोः प्रत्यक्षं, तयोः नाम परमाणोः अथवा द्वयणिकयोः प्रत्यक्षं नाम, प्रत्यक्षं नाम साक्षात्कारः न भवति, न भवति. किन्तु अत्र परमाणुद्वयणिकयोः उद्भूतरूपम् अस्ति इति उक्तं, किन्तु परमाणवः तत्र केषां परमाणवः सन्ति, कस्य द्रव्यस्य परमाणवः सन्ति, पृथ्व्याः परमाणवः सन्ति वा? पृथ्वी इति द्रव्यस्य परमाणवः सन्ति खलु, जलस्य जलस्य अपि सन्ति, वायोः वायोः अपि परमाणवः सन्ति,
वायोः अपि परमाणवः सन्ति. यत्र
लक्षणवाक्यं यदि यदा दृष्टवन्तः तत्र पृथिवी, जलं, तेजः, वायु, तत्र सर्वत्र तत्र तत्र लक्षणवाक्ये लक्षणवाक्यस्य अनन्तरं तत्र द्विविधा नित्यम् अनित्या च इति सर्वत्र आसीत् खलु, नित्यं परमाणुरूपम् इति. तत्र तत्र जलं जलस्य परमाणवः सन्ति, पृथिव्याः परमाणवः सन्ति, तेजसः अपि सन्ति, वायोः अपि सन्ति. किन्तु तत्र परमाणुद्वयणिकयोः उद्भूतरूपम् अस्ति इति दत्तमस्ति, किन्तु तत् प्रायशः तत् बहु समीचीनं तत्र सत्यमस्ति, किन्तु तत्र यदि पश्यामः तत्र प्रायशः किञ्चित् अन्यरीत्या वक्तव्या अस्ति, नाम तत्र रूपं कुत्र वर्तते,
रूपं पृथिवी
जलं
जले
पृथिव्यां तावदेव, तावदेव. अतः तत्र वायुः अस्ति, यदि परमाणु वायोः परमाणवः सन्ति चेत् तेषु रूपं न वर्तते, उद्भूतरूपमपि नास्ति. अतः तत्र अतः तत्र परमाणुद्वयणिकयोः इति दत्तमस्ति, किन्तु केवलं तत्र द्रव्यत्रयस्य परमाणवः द्वयणिकयोः एव विषयः, तत्र नाम पार्थिवजलस्य अथवा तेजसः इति एव अस्ति. अतः तत्र तेषां साक्षात्कारः प्रत्यक्षज्ञानं न भवति. वायोः अपि परमाणवः द्वयणिकयोः तयोः अपि तत्र प्रत्यक्षं न भवति, यतोहि तेषु तु तत्र रूपमेव नास्ति. वायोः परमाणवः द्वयणिकयोः
रूपमेव नास्ति, अतः उद्भूतरूपस्य प्रसङ्गः अपि न भवति,
न भवति. अतः तेषु तयोः अपि तत्र साक्षात्कारः न भवति, किन्तु पार्थिव जलीय इति अस्ति चेत् तेषामपि साक्षात्कारः प्रत्यक्षज्ञानं न भवति. अस्तु, समीचीनं भगिनी, धन्यवादः. अग्रे अन्य कोऽपि तत्र पद्मा भगिनी अग्रे पठितुम् इच्छति वा?
अस्तु,
तत्र एवमेव इति
एवमेव ग्राणेन्द्रियादीनि पृथिव्यादिद्रव्यरूपाणि अपि न प्रत्यक्षानि. तत्र पृथिवीत्वस्य सत्त्वेन रूपवत्त्वानुमाने अपि अतीन्द्रियत्वम् आलोच्य न तत् रूपं वक्ष्यमाणम् उद्भूतरूपम् इति निर्धारितम्. अतः उद्भूतरूप अभावात् तानि अपि अतीन्द्रियाणि. एवमेव गाणेन्द्रियादीनि पृथिव्यादिद्रव्यरूपाणि अपि न प्रत्यक्षानि. तत्र अपि परमाणुः अस्ति, पृथिव्यादि विषये अपि प्रमाणवः सन्ति, गाणेन्द्रियादीनि इन्द्रियाणि घ्राणाः, अनन्तरं
घ्राणेन्द्रियं, घ्राणेन्द्रियम् इति तत्र इति पदार्थः वा घ्राणेन्द्रियं, द्रव्यं वा घ्राणेन्द्रियम्?
इन्द्रियं तत्र प्रत्यक्षं न भवति,
न न प्रत्यक्षं न भवति, किन्तु द्रव्यं वा, तद् द्रव्यं वा इन्द्रियम्, घ्राणेन्द्रियं, घ्राणेन्द्रियं द्रव्यं वा?
न न
न, तत्र पृथिव्याः लक्षणवाक्ये किं किम् आसीत्?
पृथिव्याः लक्षणं गन्धः,
गन्धः, गन्धः न गन्धवत्वं पृथिव्याः लक्षणम्, अपि पृथिवी द्विविधा नित्या अनित्या च, अपि तदनन्तरं नित्या परमाणुरूपा, अनित्या त्रिविधा, शरीर इन्द्रिय विषयभेदात्, तत्र इन्द्रियं तत्र शरीरम् अस्माकं खलु, तदनन्तरम् इन्द्रियं घ्राणेन्द्रियं नासाग्रवर्ति इति अस्ति खलु, अतः घ्राणेन्द्रियं द्रव्यमस्ति, पार्थिवं द्रव्यमस्ति खलु,
आमां,
किन्तु तस्य प्रत्यक्षज्ञानं भवति वा घ्राणेन्द्रियस्य?
प्रत्यक्षज्ञानं न भवति,
हा तत्र चक्षुषा न द्रष्टुं शक्नुमः, त्वचा न तत्र तस्य ग्रहणं न भवति, घ्राणेन्द्रियेण स्वयं तस्य ग्रहणं न भवति खलु, यद्यपि घ्राणेन्द्रिये तत्र गन्धः अस्ति, किन्तु यः गन्धः घ्राणेन्द्रिये वर्तते तस्य साक्षात् स्वयं ग्रहणं घ्राणेन्द्रियेण न भवति खलु, हा अतः तत्र इन्द्रियाणि तत्र घ्राणेन्द्रियं तस्य अनुभव अस्माकम् अनुभवः अस्ति, तत् प्रत्यक्षं नास्ति, अतः प्रश्नः उदेति तत्र किमर्थम् एतत् प्रत्यक्षं नास्ति, कारणं भवेत् खलु, अतः तत्र घ्राणेन्द्रियम् अपि तत्र रसनेन्द्रियम् इति तेषां तत्र परिमाणं मध्यमपरिमाणम् इति लिखितमस्ति तत्र कोष्टके, तत्र शरीरेन्द्रिय एतत् सर्वं तत्र सर्वेपि तत्र मध्यमपरिमाणे सन्ति, इन्द्रियं सर्वं शरीरम् इन्द्रियं सर्वं मध्यमपरिमाणमाणे भवन्ति, अतः तत्र घ्राणेन्द्रियस्य मध्यमपरिमाणमस्ति, अतः तत्र परमाणुपरिमाणम् अतिरिक्तपरिमाणम् अस्ति तस्य,
खलु
न द्रष्टुं शक्यते खलु घ्राणेन्द्रियं, हा अतः तत्र तस्य परिमाणं तादृशमस्ति, अतः किं भवेत्, किन्तु घ्राणेन्द्रियं प्रत्यक्षयोग्यं नास्ति, प्रत्यक्षयोग्यं कदा भवति, प्रत्यक्षयोग्यं तदा भवति यदि तस्मिन् पदार्थे सम्यक् परिमाणं भवेत्, नाम परमाणुपरिमाणम् अतिरिक्तपरिमाणं भवेत्, अपि उद्भूतरूपं भवेत्, द्वयमपि भवति चेदेव तत्र प्रत्यक्षज्ञानं भवति, घ्राणेन्द्रियस्य प्रत्यक्षज्ञानं नास्ति इति अस्माकम् अनुभवः, अतः तस्य परिमाणं, हा तस्य परिमाणं समीचीनम् अस्ति, अतः तत्र किं भवेत्, उद्भूतरूपं तत्र नास्ति इति चिन्तनम् इति एव भवेत्, अतः तत्र उक्तमस्ति तत्र तेषां तत्र घ्राणेन्द्रियाणि पृथ्व्यादि द्रव्यरूपाणि, घ्राणेन्द्रियं पृथ्वी द्रव्यरूपं खलु, पृथ्वी द्रव्यम् अस्ति घ्राणेन्द्रियं, रसनेन्द्रियं कीदृशद्रव्यम् अस्ति,
रसन
रसनेन्द्रियं, किं किं द्रव्यमस्ति तद् रसनेन्द्रियं
रसना एव इन्द्रियं
न किन्तु द्रव्यं नाम तद् पार्थिवद्रव्यं वा जलीय तेजसः कीदृशद्रव्यं
जलं जलं
हा जलं हा चक्षुः
रूपं
हा किन्तु द्रव्यं कीदृशद्रव्यं
तेजस्
हा इति अतः तत्र सर्वं तत्र पृथिव्यादिद्रव्यरूपाणि सन्ति इन्द्रियाणि अपि न प्रत्यक्षाणि ते तानि सर्वाणि अतः तत्र पृथ्वीत्वसत्त्वेन तत्र घ्राणेन्द्रिये पृथ्वीत्वमस्ति खलु पृथ्वीत्वमस्ति चेत् तत्र रूपं भवेत् इति अस्माकं चिन्तनम् हा अपि तत्र हा इति अनुमानम् अतीन्द्रियत्व किन्तु तस्य अतीन्द्रियम् अतीन्द्रियत्वम् आलोच्य अतीन्द्रियमिति जानीमः अतः तत्र यद् रूपं वर्तते तद् उद्भूतरूपं नास्ति न तत् रूपं वक्ष्यमाणम् उद्भूतरूपम् इति निर्धारितं नाम तत्र इन्द्रिये घ्राणेन्द्रिये रूपं भवेत् किन्तु उद्भूतरूपं न भवेत् इति पतति आपतति यतोहि तत्र तत् न प्रत्यक्षं परिमाणं समीचीनम् अस्ति किन्तु उद्भूतरूपं तस्य रूपं न भवेत् इति हा इति आपतति तत्र एकं वदामि तत्र परमाणु उद्भूतरूपम् अस्ति इति दत्तमस्ति तत् किमर्थम् इत्युक्ते तस्य कोऽपि वदति वा तत्र किमर्थं तत्र परमाणौ उद्भूतरूपम् अस्ति इति स्वीकर्तव्यम् अस्ति कोऽपि जानाति वा तत्र किम् अस्ति तत्र नैयायिकानां चिन्तनम् एतदस्ति अत्र लिखामि तत्र वस्त्रम् अस्ति इति चिन्तयामः वस्त्रं तत्र वस्त्रम् रक्तवस्त्रमस्ति रक्तवस्त्रे तत्र तन्तवः सन्ति खलु वस्त्रे तन्तवः सन्ति तत्र वस्त्रे रक्तरूपमस्ति तन्तुषु कीदृशरूपमस्ति अत्र सुधा भगिनी नमस्कारः नमस्कारः भगिनी तत्र रक्तवस्त्रमस्ति वस्त्रं केन निर्मितं तत्र तन्तुषु तत्र तन्तुभिः निर्मितं खलु वस्त्रं तत्र तन्तुः अपि तत्र द्रव्यमस्ति तस्मिन्नपि तत्र तेषु अपि तत्र रूपम् अस्ति रक्तवस्त्रमस्ति चेत् तत्र तन्तूनां तत्र रूपं कीदृशं भवेत्
उद्भूतरूपमस्ति
न रूपं नाम तत्र यदि रक्तवस्त्रमस्ति चेत् तन्तुषु कीदृशरूपम् अस्ति तत्र नीलरूपं वा रक्तरूपं वा श्वेतरूपं रक्तरूपमेव भवेत् खलु यदि तन्तूनां रूपं नीलरूपमस्ति चेत् वस्त्रस्य रूपं
नीलम् अपि भवति
नीलं भवति अतः तत्र वस्त्रस्य रूपस्य कारणम् अस्ति तन्तूनां रूपं खलु
आम् सत्यं
यत् रूपं तन्तूनाम् अस्ति तेन एव तत्र एतस्य वस्त्रस्य रूपं भवति अतः तन्तूनां रूपं कारणमस्ति वस्त्रस्य रूपं कार्यमस्ति खलु तत्र यदि तत्र तन्तूनां रूपं श्वेतरूपम् अस्ति चेत् वस्त्रस्य रूपमपि श्वेतं भवति इति अस्ति अत्र तन्तवः किं भवन्ति वस्त्रस्य अवयवाः खलु इदानीं तत्र घटः अस्ति घटे उद्भूतरूपम् अस्ति खलु घटे
उद्भूतरूपमस्ति
उद्भूतरूपमस्ति घटस्य अवयवाः सन्ति वा कपालः इति अवयवाः सन्ति किन्तु कपालस्य अवयवाः सन्ति खलु हा तत्र अन्तिमचरम अवयवाः एव तत्र परमाणवः खलु हा अतः तत्र यदि घटे उद्भूतरूपम् अस्ति चेत् तस्य कारणं किम् इति प्रश्नः भवति खलु यथा वस्त्रस्य वर्णं श्वेतवर्णस्य कारणम् अस्ति तन्तूनां रूपं श्वेतरूपम् आसीत् इति तथैव तत्र घटे विद्यमानः उद्भूतरूपस्य कारणं किम् इत्युक्ते तत्र परमाणौ अपि उद्भूतरूपं भवेत् यदि परमाणुषु उद्भूतरूपं नास्ति चेत् कथं वा घटे अथवा पटे उद्भूतरूपं भवति यतोहि कारणं यथा तत्र तन्तुषु विद्यमानरूपम् एव तत्र कारणमस्ति वस्त्रे विद्यमानरूपं प्रति खलु समीचीनमस्ति वा भगिनि अवगच्छति वा तत्र
अवगतं
हा हा अतः तत्र परमाणौ उद्भूतरूपं भवेत् इति तेषां चिन्तनं हा किन्तु तत्र किं तत्र परमाणु उद्भूतरूपम् अस्ति किन्तु इन्द्रिये उद्भूतरूपं नास्ति अत्र अहं तस्मिन् विषये पृष्टवान् तत्र सम्यक्तया उत्तरं न प्राप्तं तत्र कस्य कस्य पदार्थस्य तत्र मध्यमपरिमाणं भवति किन्तु उद्भूतरूपं कस्य न भवति इति तत्र सम्यक्तया उत्तरं न प्राप्तं किन्तु समीचीनप्रश्नः अस्ति यदि भवन्तः तत्र तस्य अन्वेषणं कर्तुम् इच्छन्ति समीचीनं भवति तत्र नाम कदा उद्भूतरूपं भवति कदा न भवति इति हा तत्र घटस्य उद्भूतरूपम् अस्ति किन्तु कस्य उद्भूतरूपं न भवति इन्द्रियस्य उद्भूतरूपं नास्ति अतः तत्र उद्भूतरूपं सर्वदा मध्यमपरिमाणे भवति इति नास्ति अतः तत्र कदा भवति कदा न भवति इति तत्र तस्य विषये कुत्रापि मया तत्र चर्चा न दृष्टा अस्तु तर्हि सुधा भगिनी भवती एव तत्र अग्रे पठति वा तत्र मनसस्तु इति
मनसि नमस्ते जि एकः सन्देहः
वदतु भगिनि
तत्र उद्भूतरूपविषये तत्र अर्थः कः कथं वयं जानीमः
उद्भूतरूपम् इत्युक्ते तत्र दृश्यमाणः रूपम् इति वदन्ति भगिनि तत्र अग्रे दत्तमस्ति तत्र उद्भूतरूपं कुत्र अन्ते इति मन्ये हा तत्र पश्यामः तत्र हा पठतु भगिनि तत्र अत्र
येन द्रव्यप्रत्यक्षं भवति तद् उद्भूतम्
अतः तत्र दृश्यमाणं रूपम् इति एव तत्र वर्णनम् अस्ति भगिनि हा नाम घटपटादयः तेषु तत्र उद्भूतरूपम् अस्ति इति तावदेव लिखितं तत्र मेनिफेस्ट् इति अपि तत्र व्यवहारः भवति तत्र यस्य मेनिफेस्टेशन् हा नाम तत्र द्रष्टुं शक्नुमः इति तादृश अर्थः अस्ति उद्भूतरूपम् इति
महोदय
वदतु भगिनि
तत्र वदतु भगिनि
तत्र परमाणवः अपि तत्र परमाणवेषु अपि उद्भूतरूपम् अस्ति इति
अस्ति इति हा तत्र हा पतति भगिनि नाम तत्र परमाणुषु उद्भूतरूपम् अस्ति नाम तत्र तत् आपतति यतोहि तत्र नास्ति चेत् कथं वा घटे अथवा पटे उद्भूतरूपं भवेत् इति अतः तत्र
तत्र ग्राणेन्द्रिये इन्द्रियेषु अपि परमाणवः सन्ति एव किल नाम
हा 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 सन्ति
परन्तु तत्रापि उद्भूतरूपं भवति
हा तत्र कापि बाधा अस्ति किन्तु घटे वर्तते तस्य कारणं भवेत् यत्र न वर्तते तस्य तत्र न वर्तते अतः तत्र उद्भूतरूपं भवति न वा इति इति प्रश्नः न उदेति, किन्तु घटे उद्भूतरूपम् अस्ति, तत्र वस्त्रे रक्तरूपम् अस्ति चेत् तस्य कारणं किम्? वस्त्रस्य अवयवाः सन्ति, अवयवानां रूपं रक्तमस्ति, अतः एव वस्त्रस्य रूपं रक्तं, खलु? अतः घटे उद्भूतरूपम् अस्ति, तस्य कारणं किम्? अवयवानाम् अपि उद्भूतरूपं भवेत्, नो चेत् अत्र उद्भूतरूपं न भवितुम् अर्हति इति भवति, अतः आपतति, तत्र तस्य अस्वीकारः न कर्तुं शक्नुमः. अत्र तत्र तस्य प्रत्यक्षज्ञानं किमर्थं न भवति? यतोहि परिमाणं मध्यमपरिमाणं वा तत्र अथवा परममहत्परिमाणं वा नास्ति. तत्र प्रायशः आधुनिककाले वयं वक्तुं शक्नुमः, अस्तु तत्र परमाणु इति यदि चिन्तनं कुर्मः, तस्य तत्र मैक्रोस्कोप् मध्ये वा किमपि तस्य प्रत्यक्षज्ञानं भवति इति चिन्तयितुं शक्नुमः. किन्तु परमाणु यत् न्यायशास्त्रे अस्ति तद् भिन्नमस्ति, आटम् यदस्ति तद् भिन्नमस्ति, अतः हा तावदेव तत्र तेषां मतम् एतदस्ति. हा अन्यप्रश्नः?
अस्तु, तदेव वक्तुम् इष्टवती महोदय, तत्र मैक्रोस्कोप् मध्ये अस्ति चेत् दृश्यते एव, यतोहि तत्र सर्वं परमाणूनां समूहः समुदायः एव अस्ति इति कृत्वा, परमाणु अवस्थायां रूपं नास्ति चेत् रूपं अनन्तरं न भवितुम् अर्हति. अन्तिम तत्र चरमः शकलः
चरम
चरम अवस्थायामेव भवेत् रूपं, नो चेत् न भवति एव, यतोहि तत्र किं तत्र कलेक्षन् पुट् टुगेदर् इति भवति इति कृत्वा अनन्तरं
इति एव तेषामपि चिन्तनम् अस्ति भगिनि. नाम तत्र यदि परमाणुषु उद्भूतरूपं नास्ति, अतः तत्र केन
रूपं न भवति एव अनन्तरम्
उद्भूतरूपं घटे पटे न भवितुम् अर्हति इति एव तेषां चिन्तनं. सत्यं भगिनि,
किन्तु न दृश्य चक्षुषा न दृश्यते,
दृश्यमाणः
भवनीयं चेत् अनेकाः परमाणवः भवेत्.
अतः तत्र यत् यत् दत्तमस्ति नाम तत्र येन द्रव्यप्रत्यक्षं भवति तत् उद्भूतम् इति दत्तमस्ति, किन्तु तत्र उद्भूतम् इति द्रव्यप्रत्यक्षं तत्र सम्यक्तया न अत्र उक्तं. तत्र उद्भूतरूपं तत्र दृश्यमाणः इति, किन्तु साक्षात् दृश्यमाणः नास्ति, किन्तु यदि तेषाम्
अग्रे भविष्यति इति वा,
हा तेषां समूहः कुर्मः चेत् भविष्यति वा इति किमपि तत्र अस्माभिः चिन्तनं भवेत्. हा किन्तु घटपटादयः तेषां तत्र उद्भूतरूपम् अस्ति इति.
इन्द्रियाणाम् उद्भूतरूपम् अस्ति चेदपि न दृश्यमाणाः
न इन्द्रियस्य उद्भूतरूपं नास्ति
एव. अस्तु,
नास्ति एव, अतः तत्र किमर्थम् इति न जानीमः. तस्य कारणं किम् इति न उक्तं, किन्तु तस्य उद्भूतरूपं न भवेत् यतोहि परिमाणं
मध्यं
न रूपमस्ति, रूपं सर्व उद्भूतरूपं नास्ति, उद्भूतरूपं नास्ति यतोहि ते तत्र इन्द्रियाणि
दृश्यमानरूपं नास्ति,
न अप्रत्यक्षाणि, तत्र तस्य प्रत्यक्षज्ञानं न भवति, घ्राणेन्द्रियस्य प्रत्यक्षज्ञानं न भवति.
धन्यवादः.
अग्रे एकवाक्यं दत्तमस्ति अग्रिमपुटे वा, तत्र इन्द्रियस्य त्रयाणुकात् आरभ्य तत्र द्वयाणुकात् पर्यन्तं तत्र उद्भूतरूपं भवति, परन्तु त्रयाणुकात् आरभ्य कुत्रचित् केनचित् कारणात् उद्भूतरूपं न तिष्ठति इति एकवाक्यमस्ति अत्र, अतः इन्द्रियस्य प्रत्यक्षं न भवति. अत्र अग्रिमपुटे वा अस्ति,
अग्रिमे पुटे इति वा,
अस्ति तत्र प्रथमतया उद्भूरूपं भवति द्वयणुकात् पर्यन्तं त्रयणुकात् अनन्तरं केनचित् कारणात् तत्र तेषाम् उद्भूतरूपं तिष्ठति इति अस्ति अत्र तावदेव अस्ति तत्र
हा किन्तु महोदय तत्र सत्यं हा नाम तत्र भवति इति उक्तं किन्तु कारणं न उक्तं खलु
हा कारणं न उक्तं कारणं न उक्तं
कारणं न उक्तं तावदेव अहमपि वक्तुम् इच्छामि समीचीनं महोदय नाम भवति अतः तत्र मध्यमपरिमाणम् अस्ति चेदपि तत्र उद्भूतरूपं न भवेत् अतः अतः एव तत्र प्रत्यक्षयोग्याः इति विषये दलद्वयमपि आवश्यकमस्ति नो चेत् केवलं मध्यमपरिमाणम् इति वक्तुं शक्नुमः अथवा तत्र परमाणुपरिमाणम् अतिरिक्तपरिमाणम् इति वक्तुं शक्नुमः किन्तु तत्र उद्भूतरूपमपि तत्र तस्य आवश्यकता अस्ति अतः तत्र दलद्वयमपि भवेत् इति भवति खलु अस्तु अस्तु सुधा भगिनी तत्र हा मनसस्तु इति तत्र
महोदय क्षम्यतां
जयलक्ष्मी भगिनी प्रश्नः
महोदय तदेव अत्र किञ्चित् क्लेशः अस्ति यतोहि अत्र घ्राणेन्द्रियम् इति वदामः चेत् नासिका रसनेन्द्रियं जिह्वा श्रोत्रेन्द्रियं
कर्णेन्द्रियम्
इति नास्ति वा
इति नास्ति घ्राणेन्द्रियम् इति भिन्नः अस्ति नासिका नास्ति तत्र अतः एव तत्र अहं लक्षणवाक्ये तस्य पुनस्मरणं कृतवान् नाम लक्षणवाक्ये पृथ्वी तत्र विविधा नित्या नित्या च तदनन्तरं किम् आसीत् अनित्या त्रिविधा अस्ति खलु नित्या परमाणुरूपा तदनन्तरम् अनित्या त्रिविधा शरीर इन्द्रियविषयभेदात् इति शरीरं तत् पार्थिवम् अस्माकं शरीरं पार्थिवम् इति चिन्तनं तदनन्तरम् इन्द्रियम् इन्द्रियं किमस्ति हा घ्राणेन्द्रियं पृथ्वी द्रव्यं पार्थिवद्रव्यमस्ति घ्राणेन्द्रियं किन्तु शरीरस्य भागः नास्ति साक्षात् भागः नास्ति अङ्गं नास्ति नासाग्रवर्ति तत्र तिष्ठति नासिका समीपे तिष्ठति किन्तु साक्षात् नासिका नास्ति नाम तत्र यथा तत्र यत् तत्र वीडियो तत्र वाट्साप् ग्रूप् मध्ये तत्र लिङ्क् प्रेषितमस्ति तस्मिन् वीडियो मध्ये तत्र देवदत्तपाटील महोदय तत्र तस्य विवरणं करोति नाम तत्र यदा अस्माकं तत्र आरोग्यः सम्यक् न भवति तत्र किमपि क्लेशः अनुभूयते तदा किं नासिका तु अस्ति किन्तु तत्र घ्राणेन्द्रियस्य कार्यं घ्राणेन्द्रियं कार्यं न करोति खलु अतः तत्र घ्राणेन्द्रियं भिन्नं नासिका भिन्नम् इति वयं ज्ञातुं शक्नुमः अतः तत्र घ्राणेन्द्रियम् अपि तत्र तत्र जनाः सन्ति येषां कर्णः अस्ति किन्तु न श्रोतुं शक्नुवन्ति न द्रष्टुं शक्नुवन्ति चक्षुः अस्ति खलु
सत्यं किन्तु अवयवः नास्ति इति वक्तुं शक्यते किम्
हा अवयवः नास्ति भगिनि सत्यं शरीरस्य अवयवः नास्ति अतः एव तत्र पूर्वस्मिन् पुटे अपि तत्र हा तत्र किमर्थं तत्र बहुवचने अस्ति इति तत्रापि तत्र चक्षु रसन घ्राण त्वक् श्रोत्राणि इति अस्ति यतोहि तत्र यत्र द्वन्द्वसमासः भवति तत्र हा शरीरस्य भागः इति चिन्तनम् अस्ति चेत् सर्वदा तत्र नपुंसकलिङ्गे एकवचने अतः तत्र एकरीत्या शरीरस्य भागः इति वक्तुं शक्नुमः किन्तु अन्यारीत्या शरीरस्य भागः नास्ति इति अपि वक्तुं शक्नुमः
अत्र संयोगसम्बन्धः अपि नास्ति इति उद्देशः वा
संयोगसम्बन्धः प्रायशः अस्ति भगिनि नाम तत्र इन्द्रियं प्रायशः तत्र घ्राणेन्द्रियं नासिकायां संयोगसम्बन्धेन वर्तते इति अहं चिन्तयामि अपि नासिका तु समयसम्बन्धिन शरीरे अस्ति, यतोहि अवयवः अस्ति. यत्र अवयव अवयवी तत्र समवायसम्बन्धः. किन्तु नासिका अपि घ्राणेन्द्रियं तयोः मध्ये संयोगसम्बन्धः इति चिन्तनम् अस्ति इति मन्ये भगिनि. अतः एव तत्र तत्र अत्रैव प्रायशः तस्य किञ्चित् उल्लेखः अपि अस्ति, नाम परन्तु घ्राणभिन्नानां संयुक्तद्रव्यत्वात् अवयत्व अभावः.
तत्तु सत्यम्.
अतः तत्र
अवयवत्व अभावः,
अवयत्व अभावः अस्ति, अपि संयुक्तद्रव्यत्वात् नाम संयुक्त अतः संयोगः. अतः तत्र घ्राणेन्द्रियम् अपि शरीरं तयोः मध्ये संयोगः वर्तते. नाम घ्राणेन्द्रियम् अपि नासिका तयोः मध्ये संयोगः, नासिका अपि शरीरं तत्र तु समवायः.
अस्तु.
अतः तत्र
इदानीमत्र
वदतु भगिनि.
क्षम्यता. अत्र घ्राणरसनचक्षुरिन्द्रियाणि इति उक्तं, केवलं तावत् तानि इन्द्रियाणि वा अन्यानि इन्द्रियाणि अपि तस्मिन् गणे आपतति वा? मनः विहाय प्रायः.
मनः 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 इति तस्य तद् किञ्चित् भिन्नम् अस्ति. तत्र मध्यमपरिमाणे तत्र परिमाणो कुत्र आसीत्, तत्र परिमाणम् अत्र आसीत्. तत्र शरीर इन्द्रियविषयभेदः तत्र तत्र यथा भवत्या उक्तं तत्र बहिरिन्द्रियाणि सर्वाणि तत्र तेषां मध्यमपरिमाणम् अस्ति. मनः इति तत्र परमाणुपरिमाणम् अस्ति तस्य.
किन्तु वायोः इदानीं उद्भूतरूपं रूपमेव नास्ति इति उक्तं.
रूपमेव नास्ति,
किन्तु तत्र द्व्यणुक परमाणुद्व्यणुकम् इति भवति खलु?
भवति, किन्तु प्रत्यक्षं न भवति.
प्रत्यक्षं न भवति, किन्तु न केवलं द्व्यणुकं, तस्य तस्मात् उपरि अपि परिमाणं भवति खलु.
किमपि किमपि वायवीयद्रव्यं स्वीकुर्मः, प्राणः वा इति किमपि यत् स्वीकुर्मः, तत्र मध्यमपरिमाणमस्ति, किन्तु तत्र प्रत्यक्षज्ञानं नास्ति इति चिन्तनम्. तत्र वायु तत्र वायुना तत्र वृक्षे तत्र पर्णानां कम्पनं भवति, पर्णाः कम्पन्ते वायुना, तत्र कम्पन्ते अतः कम्पनहेतुः अस्ति वायुः, किन्तु वायु साक्षात् न दृश्यते खलु?
सत्यं.
अतः तत्र वायु यत्किमपि वायु भवेत् तस्य तत्र
रूपमेव नास्ति,
रूपमेव नास्ति, अतः तत्र प्रत्यक्षयोग्यः नास्ति. अतः एव तत्र यः प्रश्नः गतवर्गे आसीत् तत्र पद्मभगिन्या इति मन्ये, तत्र प्रश्नः भगिन्यः नाम तत्र व्यजनं चालयामः तत्र स्पर्शः भवति, किन्तु स्पर्शः तत्र त्वचा तस्य ग्रहणं भवति, आश्रयस्य ग्रहणं भवति न वा इति अस्ति चेत् ग्रहणं न भवति, यतोहि वायोः वायुः प्रत्यक्षयोग्यः पदार्थः नास्ति. अतः तत्र त्वक् शीतस्पर्शस्य सन्दर्भे शीतस्पर्शस्य ग्रहणं करोति, त्वक् अपि शीतस्पर्शस्य आश्रयः जलं यदस्ति तस्य अपि प्रत्यक्षज्ञानं जनयति, तेजसः अपि तादृशं ज्ञानं प्रत्यक्षज्ञानं जनयति, किन्तु वायोः प्रत्यक्षज्ञानं न जनयति. अतः तत्र त्वग् कुत्रचित् गुण अपि गुणाश्रयस्य अपि ज्ञानं जनयति, कुत्रचित् केवलं गुणस्य गुणमात्र प्रत्यक्षज्ञानं जनयति. गतवर्गे प्रश्नः गतवर्गे अथवा तस्मात् प्राक् प्रश्नः आसीत् खलु तत्र.
सत्यम्.
अतः तत्र उत्तरमस्ति नाम वायोः प्रत्यक्षज्ञानं न भवति अतः तत्र त्वचा वायोः ग्रहणं न भवति अतः किन्तु जलस्य वा अथवा तेजसः ग्रहणम् अवश्यं भवति यदा स्पर्शः उष्णस्पर्शः वा शीतस्पर्शः वा भवति तदा तस्य
किन्तु अत्र एक पुनरेकवारं महोदय क्षम्यताम् अत्र कोष्टके नाप्रत्यक्षयोग्याः इत्यत्र वायुप्रभृतिदिव्य द्रव्याणि विशेषतः त्वगिन्द्रियं वायवीयम् इति उक्तं खलु तत् किमर्थं तदा इदानीं इदानीम् उक्तं तस्य एव तदेव अत्र उक्तं वा तस्य एव अर्थः वा
तत्र तत्र अस्तु तत्र एतत् एतस्य विषये एव तत्र सर्वं लिखितमस्ति एतत् सारांशरूपेण तत्र चित्रं दत्तमस्ति किन्तु पश्यामः तत्र वायुप्रभृतिद्रव्याणि नाम वायुः तदनन्तरं किं किम् अस्ति वायु तदनन्तरं आकाश
आकाश दिक् काल आत्मा मनः
आत्मा मनः तत्र तत्र किं भवति रूपं न वर्तते अपि तत्र यदि तत्र वयं श्रोत्रेन्द्रियम् आकाशरूपं तत्र त्वगिन्द्रियम् अस्ति तत्र वायवीयं खलु
वायवीयम् इत्युक्ते
त्वगिन्द्रियं तस्य त्वगिन्द्रियस्य कीदृशपदार्थः अस्ति तत्र कीदृशद्रव्यमस्ति त्वगिन्द्रियम् नाम तत्र कस्मिन् द्रव्ये अन्तर्भूतः अस्ति त्वगिन्द्रियं घ्राणेन्द्रियं पार्थिवद्रव्यं
पार्थिव
न न त्वगिन्द्रियं पार्थिवद्रव्यं नास्ति घ्राणेन्द्रियम् अस्ति पार्थिवद्रव्यं तत्र पश्यन्तु तत्र लक्षणवाक्यं यदि पश्यामः तत्र दत्तं भवति खलु नाम तत्र तत्र रूपरहितस्पर्शवान् वायुः तत्र पेज् 43 मध्ये 42 मध्ये तत्र पठतु भगिनी तत्र रूपरहितस्पर्शवान्
वायुः सः द्विविधः नित्य अनित्यश्च नित्यः परमाणुरूपः अनित्यः कार्यरूपः पुनः त्रिविधः शरीरेन्द्रियविषयभेदात् शरीरं वायुलोके इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति
अतः तत्र त्वगिन्द्रियम् अस्ति वायवीय इन्द्रियम् नाम वायवीयद्रव्यम् अस्ति त्वगिन्द्रियं द्रव्यमस्ति वायवीयम् अस्ति खलु अपि श्रोत्रेन्द्रियं तदस्ति तत्र आकाशरूप आकाशस्वरूपं तस्य श्रोत्रेन्द्रियस्य अतः तत्र तेषां सर्वेषां तत्र प्रत्यक्षज्ञानं न भवति यतोहि तत्र तेषु सर्वत्र तत्र रूपं न वर्तते तत्र वायु आकाशः कालदिक् मनः आत्मा सर्वत्र रूपं न वर्तते अपि तत्र परमाणुपरिमाणं भिन्नपरिमाणम् अस्ति यत्र तत्र परमाणुविषयः नास्ति तत्र प्रायशः लेखनीयमस्ति नाम तत्र द्रव्याणि इति अस्ति किन्तु वायवीयपरमाणवः तान् विहाय खलु तानि विहाय
कुत्र महोदय
अत्र वायुप्रभृतिद्रव्याणि इति अस्ति किन्तु तत्र परमाणुपरिमाणभिन्नपरिमाणमस्ति इति लिखितमस्ति अतः तत्र लेखनीयमस्ति नाम परमाणु वायवीयपरमाणु भिन्न द्रव्याणि भिन्न भिन्नानि तत्र यथा लिखितं तत्र अस्मिन् भागे वायवीयपरमाणवः अपि अन्तर्भूताः भवन्ति किन्तु तत्र परिमाणं समीचीनं नास्ति तेषामपि प्रत्यक्षं न भवति, किन्तु हा तत्र अत्र ते न भवन्ति तावदेव.
अस्तु महोदय, धन्यवादः.
अस्तु, हा समीचीनम्. अस्तु, अन्यप्रश्नः अग्रे सरामः वा? अस्तु, तत्र हा सुधा भगिनी, तर्हि तत्र मनसस्तु इति, हा
मनसस्तु न उद्भूतरूपं नापि उक्तपरिमाणम् इति सुदूरं तस्य प्रत्यक्षम्.
हा अग्रेपि, हा
शब्द आश्रयस्य गगनस्य वायोश्च परमाणुपरिमाण अतिरिक्तपरिमाणं वर्तते, परन्तु न तत्र रूपम् अस्ति इति तयोरपि प्रत्यक्षं न भवति.
तावत् पर्यन्तं वदतु भगिनि.
मनसस्तु न उद्भूतरूपम् अत्र मनसः मनांसि रूपं वर्तते परन्तु उद्भूतरूपं नास्ति.
न न, मनांसि तत्र मनसि रूपमेव न वर्तते खलु, कुत्र रूपं कुत्र कुत्र वर्तते?
मनांसि रूपमेव न वर्तते.
हा केवलं पृथिव्यां जले तेजसि रूपं वर्तते. हा
मनांसि रूपमेव न वर्तते, अतः उद्भूतरूपस्य प्रश्नः एव नास्ति.
नास्ति, हा
परमाणुपरिमाण भिन्नपरिमाणं न वर्तते, तत्र तु परमाणुपरिमाणमेव मनांसि अस्ति. नित्य मनः नित्यमस्ति, अतः
समीचीनं भगिनि. हा इति तत्र समीचीनं भगिनि. हा तस्मिन् विषये अहं वक्तुम् इष्टवान्, भवती उक्तवती समीचीनं. तत्र किमर्थं मनसः परिमाणं परमाणुपरिमाणम् इति ते स्वीकुर्वन्ति? तत्र मनसः परिमाणं किमर्थं परमाणुपरिमाणम् इति स्वीकृतं? तत्र मध्यमपरिमाणम् अस्ति केवलं तत्र अनित्यपदार्थानां मध्यमपरिमाणम् अस्ति. तत्र अवयवाः सन्ति, कार्तस्य कारणम् अस्ति, एतत् सर्वम् अस्ति. अनित्यद्र पदार्थाः मध्यमपरिमाणे ये पदार्थाः सन्ति ते सर्वे तत्र अनित्यपदार्थाः. मनः तु तत्र नित्यपदार्थः इति स्वीकृतम्, अतः तत्र अत्र न भवितुम् अर्हति मनः. मनः मध्यमपरिमाणे न भवितुम् अर्हति. किमर्थं परममहत्परिमाणं न भवितुम् अर्हति इत्युक्ते, तत्र तेषां चिन्तनमस्ति, तत्र बुद्धिः, तत्र सुखदुःखः इति यदस्ति तत् सर्वम् उक्तं, पूर्वम् उक्तं. तत्र मनसा आत्मनि प्रत्यक्षज्ञानं भवति. आत्मा अपि विभूद्रव्यमस्ति, नाम तस्यापि तत्र आत्मा अपि तत्र किमर्थं तत्र न दत्तमस्ति? हा आत्मा इति अपि तत्र परममहत्परिमाणमेव भवेत्. अपि तत्र मनः अपि यदि परममहत्परिमाणं तस्यापि भवति चेत् तत्र किं भवति? तत्र सर्वेषां तत्र सुखं दुःखं सर्वं तत्र यद्यत् किमपि एकस्य ज्ञानं भवति तत् सर्वेषां ज्ञानं भवति. नाम तत्र एकस्मिन् समये सुखं दुःखं सर्वं तस्य अनुभवः भवेत्, किन्तु तादृशं नास्ति. अतः तत्र मनसः परिमाणं परममहत्परिमाणं न भवेत्. अतः एतदपि नास्ति, एतदपि नास्ति चेत् तर्हि केवलं परमाणुपरिमाणमेव भवेत् इति कृत्वा अत्र स्थापितम् अस्ति मनः. अस्तु, हा अतः तत्र मनसः उद्भूतरूपं नास्ति, अपि तत्र परिमाणं तु परमाणुपरिमाणमेव अस्ति. अतः तस्य प्रत्यक्षं सुदूरं नाम सुदुर्लभं, तत्र प्रत्यक्षं न लभ्यते, न लभते. अग्रे
शब्दस्य आश्रयमस्ति आकाशं गगनस्य वायोः, तत्र परमाणुपरिमाण अतिरिक्तपरिमाणं तत्र वर्तते, परन्तु तत्र अपि रूपं नास्ति. अतः रूपं नास्ति इति कृत्वा तत्र उद्भूतरूपस्य प्रश्नः अपि न उदेति, अतः तस्य प्रत्यक्षमपि न भवति.
हा अतः तत्र तयोः वायोः प्रत्यक्षज्ञानं न भवति, गगनस्य आकाशस्य अपि प्रत्यक्षज्ञानं न भवति इति अस्ति. समीचीनं, धन्यवादः भगिनी. हा अस्तु अस्तु, अग्रे तत्र एतावत् प्रेमलता भगिनी पठितवती. अस्तु, तत्र नरसिंहमहोदय पठितुम् इच्छति वा अग्रे? तत्र किं तर्हि इति.
किं तर्हि? तयोः सत्य प्रमाणम् अनुमानं प्रत्यादित्रिके यादृशी यादृशस्पर्श वर्तते तद्विजातीयस्पर्शः अनुभूयमानः यः सः आश्रयभूतद्रव्यमपेक्षते इति तदाश्रयता वायुः सिद्ध्यति. एवमेव शब्दरूपगुणस्य आश्रयभूतं द्रव्यम् अवकाशम् आवश्यकम् इति तदाश्रयता आकाशः सिद्ध्यति. तत्र वायुरन्तरम् आकाशस्य सत्त्वे प्रमाणं किं? वायुः अस्ति, आकाशम् अस्ति इति तस्य कृते प्रमाणं किम् इत्युक्ते अनुमानमेव.
नाम तत्र वयं जानीमः तत्र आकाशः अस्ति, वायुः अस्ति इति अस्माकं ज्ञानम् अस्ति, किन्तु तद् ज्ञानं प्रत्यक्षं नास्ति.
वयं द्रष्टुं न शक्नुमः,
द्रष्टुं शक्नुमः अन्येन इन्द्रियेण अपि तस्य ज्ञानं न प्राप्तुं शक्नुमः. अतः तत्र तस्य ज्ञानं केन प्राप्तं, तत्र प्रमाणं किम् इति तत्र इति प्रश्नः उदेति. अतः उत्तरं किम् अस्ति?
अनुमानम्.
अनुमानम्.
वयं ऊहां कर्तुं शक्नुमः आकाशम् अस्ति, वायु अस्ति इति ऊहां कर्तुं शक्नुमः.
अनुमानम् इति तस्य तत्र प्रसिद्ध उदाहरणं नाम तत्र पर्वते तत्र
वह्निमान् पर्वत अग्निमान् पर्वत
धूमवान् पर्वतः इत्युक्ते तत्र धूमः अस्ति वह्नः तत्र पर्वते, धूमस्य प्रत्यक्षज्ञानम् अस्ति तेन. स्मोक् इति धूमः, पर्वते वर्तते, तस्य प्रत्यक्षज्ञानम् अस्ति. किन्तु वयं जानीमः यत्र धूमः वर्तते तत्र वह्निः अस्ति एव. अतः धूमवान् पर्वतः इति ज्ञानात् वह्निमान् पर्वतः इति अस्माकं ज्ञानम् अनुमानं भवति. तथैव अत्रापि तत्र वह्निः अपि तत्र भवेत् इति यथा वयं चिन्तितवन्तः तथैव अत्र अपि चिन्तनं कर्तुं शक्नुमः. अनुमानमिति द्वितीयविधज्ञानं, तत्र ज्ञानस्य च प्रत्यक्षज्ञानम् अनुमितिः अपि उपमानम् अपि शब्दः इति भवति. प्रत्यक्षज्ञानमिति एव अस्माकं विषयः, किन्तु तत्र वायुः अपि आकाशस्य प्रत्यक्षज्ञानं न भवति. हा अस्तु, अग्रे महोदय. पृथिवीयादित्रिके
आदित्रिके इत्युक्ते पृथिवीयाप् तेज इत्यत्र यादृशस्पर्शः वर्तते इत्युक्ते पृथिव्यां गन्धः वर्तते.
यादृशस्पर्शः न स्पर्शः, केवलं स्पर्शः तत्र स्पर्शः तत्र जले कीदृशस्पर्शः वर्तते?
शीतस्पर्शः,
शीतस्पर्शः वर्तते.
तेजसि उष्णस्पर्शः वर्तते,
तेजस्पर्शः वर्तते. हा अपि पृथिव्यां तत्र अशीत
अनुष्ण अशीत अनुष्णस्पर्शः
वर्तते. किन्तु तद्विहाय तत्र स्पर्शत्रयमस्ति, किन्तु तद् विजातीयस्पर्शः अपि
तयोः भिन्नस्पर्श वायोः भवति.
अनुभूयमानः स्पर्शः अस्माकम् अस्ति, अनुभूयमानः अस्ति, अस्माभिः अनुभूयमानः स्पर्शः तत्र वर्तते. सः स्पर्शः अस्ति इति कृत्वा स्पर्शः कीदृशः पदार्थः? स्पर्शः
गुण अस्ति, गुणाश्रयस्य द्रव्यम् आवश्यकम्. अतः तत्र
अतः तत्र तस्य आश्रयम् अपेक्षते. अतः तत्र आश्रयः पृथ्वी न भवितुम् अर्हति, यतोहि तत्र स्पर्शः भिन्नः स्पर्शः अस्ति. अपि तत्र जलं न भवितुम् अर्हति, नापि तेजः इति कृत्वा तद् भिन्नं द्रव्यं भवेत्. अतः तस्य तद् भवति तत्र वायुः. अतः वायुः इति द्रव्यं सिद्ध्यति, अनुमानेन सिद्ध्यति. नाम तत्र तस्य प्रत्यक्षज्ञानं नास्ति, किन्तु अनुमानेन तस्य ज्ञानं भवति, वायोः ज्ञानं भवति. हा अग्रे.
अग्रे अनुभूयमानयः आश्रयभूतद्रव्ये अपेक्षते इति तादृश तदाश्रयत वायु इति सिद्ध्यति अनुमानेन सिद्ध्यति
तस्य स्पर्शस्य आश्रयता अस्ति तया आश्रयतया वायुः सिद्ध्यति माध्यमं तत्र आश्रयता भवेत् नाम आश्रयः अस्ति आश्रयः अस्ति चेत् आश्रयता इति भावः अस्ति तया वायुः सिद्ध्यति हा अग्रे
तथापि एवमेव शब्दरूपगुणस्य वयं किमपि शब्दं शृणुमः चेत् तत् पृथ्व्या शब्दः न भवितुम् अर्हति पृथ्व्यां तादृशगुणः नास्ति जले अपि नास्ति वायो तत्र वायुः अपि नास्ति तेजे तेजसः अपि नास्ति अतः शब्दरूपगुणस्य आश्रयभूतं द्रव्यम् आकाश आवश्यकम् इति कृत्वा तदाश्रयत आकाशः इति सिद्ध्यति वायुः आकाश अनुमानेनैव सिद्ध्यति वायुः आकाशस्य
शिष्टं इति ज्ञानम् अनुमानेन एव सिद्ध्यति न तु प्रत्यक्ष तद् ज्ञानं प्रत्यक्षज्ञानं नास्ति समीचीनं महोदय हा समीचीनं धन्यवादः
वि केनाट् सी इण्डैरेक्ट्लि दे आर् एस्टिमेटेड् दट् दे
इन्फरेन्स् एव इति अनुमानं इन्फरेन्स् इन्फरेन्स् इत्येव
धन्यवादः
समीचीनं धन्यवादः महोदय हा अस्तु अग्रे तत्र उपेन्द्रमहोदय अग्रे पठितुम् इच्छति वा
निश्चाचार्य आमाचार्य तत्र च अनुमानेन सिद्ध्यतः पदार्थस्य बहुत्वज्ञानाय काचन साधक साधकयुक्तिः
अस्ति चेत्
अस्ति वा
अस्ति चेत्
अस्ति चेत् तस्य बहुत्व स्वीक्रियते एव
हा तावत्पर्यन्तं वदतु
तत्र अनुमानेन सिद्ध्यतः पदार्थस्य अनुमानात् सिद्ध्यति पदार्थं
किम् अनुमानेन एतावत् तत्र उदाहरणं किं दृष्टवन्तः वयम् अनुमानेन किं पदार्थं सिद्ध्यति
पृथिवी
पृथ्वी न अनुमानेन तत्र पृथिव्याः प्रत्यक्षज्ञानमस्ति किन्तु अनुमानेन कस्य ज्ञानं प्राप्तम् अनुमानेन एव सिद्ध्यति आकाशः अपि अनुमानेन एव सिद्ध्यति इदानीं तत्र एतादृशं पदार्थः अनुमानेन यः पदार्थः सिद्ध्यति तस्य पदार्थस्य
बहुत्वज्ञानाय
नाम तत्र तस्य पदार्थः तादृशपदार्थः यस्य ज्ञानम् अनुमानेन प्राप्तमस्ति तादृशपदार्थः एकः एव अस्ति वा अथवा अनेकाः सन्ति वा इति प्रश्नः उदेति खलु एकमेव स्वीकर्तव्यं वा अथवा अनेकाः सन्ति इति स्वीकर्तव्यं वा इति प्रश्नः उदेति तत्र किं वदति तत्र काचन
साधकयुक्तिः अस्ति चेत्
तस्य बहुत्वं स्वीक्रियते एव नाम साधारणतया वयं किं कुर्मः तत्र एकः एव अस्ति अनुमानेन यदि किमपि पदार्थः सिद्ध्यति चेत् सः पदार्थः एकः एव पदार्थः इति अस्माकं चिन्तनम् अस्ति लाघव तत्र सारल्यार्थम् एकः एव पदार्थः अस्ति किन्तु यदि तत्र किमपि युक्तिः अस्ति चिन्तनं भवति न तत्र एकः एव चिन्तनमस्ति चेत् तत्र हानिः भवति अतः बहुत्वम् अपेक्षितम् इति किमपि चिन्तनं युक्तिः यदा युक्तिः अस्ति तदा एव तत्र बहुत्वं स्वीक्रियते युक्तिः नास्ति चेत् सारल्यार्थम् एकः एव इति चिन्तनं भवति
युक्तिः अस्ति चेत् अनेकं चिन्तयति
अनेकस्य चिन्तनं कुर्मः युक्तिः एव नास्ति चेत् एकमेव इति तेन पर्याप्तम् इति अस्माकं चिन्तनं भवति हा समीचीनं महोदय अस्तु तत्र राजीभगिनी पठितवती वा
अहं केवलं शृणोमि महोदय अद्य
अस्तु 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 पद्मा भगिनी पठितवती अस्तु तत्र अन्ये कः अथवा का पठितुम् इच्छति? तत्र चन्द्रमती भगिनी तत्र किञ्चित् पठितुम् इच्छति वा?
अस्तु महोदय.
तत्र अनुभूयते इति
अनुभूयते च अनुमितस्यापि वायोः नानात्वम् अनुभूयते च
तत्र वायुः वायुः
वायुः इत्यादि अनुमानेन
प्राप्तम्
वयं जानीमः वायुः अनुभूयते च अनुमितस्यापि वायोः नाना वायोः नानात्वम् अपि अनुमानेन अनुभूयते.
न न न क्षम्यतां, तत्र वायुः अनुमानेन प्राप्तं प्राप्तः पदार्थः अस्ति, किन्तु तस्य नानात्वं तत्र अनेकविधवायवः सन्ति इति वयम् अनुभवामः. तत्र तद् नानात्वम् अनुभूयते कथम् इति अग्रे दत्तमस्ति. अग्रे पठतु भगिनि. तर्हि
तर्हि अन्योहि समीरणः वृक्षादि कम्बनहेतुः वृक्षादिकम्बनहेतुः वायोः एकस्य कारणं एकविधवायुः अस्ति.
हेतुः हेतुः नाम कारणं वृक्षादिकम्पनहेतुः वृक्षाणां कम्पन
कम्पनस्य
समीरेण अस्ति. अन्यवायुः अस्ति
अन्यश्च शरीरान्तः सञ्चारी प्राणः अन्यस्य शरीरान्तः सञ्चारी प्राणः इत्युक्ते तदपि वायु एव अस्ति वा सञ्चारी प्राणः
खलु वायु एव अस्ति खलु तत्र शरीरे अस्माकं शरीरे पञ्चप्राणाः सन्ति तत्र तदपि वायु वायवीय द्रव्यमेव तत्र तदपि द्रव्यं वायवीयं पदार्थः एव अस्ति किन्तु वायुः भिन्नः अतः एषः वायुः भिन्नः अस्ति प्राणः इति वायुः भिन्नः अस्ति
वृक्षाणां कम्पनम् एकं रूपं सञ्चारीप्राणः अन्यम् एकं रूपम्
तत्र अतः अनुभवेन वयं जानीमः तत्र वायोः नानात्वम् अस्ति अनेकत्वम् अनेकत्वं वयम् अनुभवामः
यथा
तत्र अस्तु अग्रे तत्र पठतु
यथा वा आत्मसुखादि प्रत्यक्षाय चक्षुरादि भिन्न भिन्नमिन्द्रियं मनोरूपम् अनुमितं यथा वा आत्मसुख प्रत्यक्षाय
सुख दुःख इति गुणाः ये सन्ति आत्मविशिष्टगुणाः सन्ति आत्मनि वर्तन्ते तेषां प्रत्यक्षज्ञानं भवति चक्षुषा न भवति इति कृत्वा तत्र मनोमनः इति इन्द्रियम् अनुमानेन लब्धमस्ति.
तादृशं वायोः सान्निध्यं भिन्नवायोः सान्निध्यमपि वयम् अनुभवेन जानीमः.
हा तत्र एतत् वायुः इति विषयः कृतः. इदानीं मनः मनसः विषयः मनः अपि तत्र अनुमानेन प्राप्तम् इन्द्रियमस्ति पदार्थः अस्ति तस्यापि अनेकत्वम् आवश्यकम् अस्ति इति अस्ति. अत्र किन्तु समयः जातः अत्र अग्रिमवर्गे अतः आरभ्य पश्यामः तत्र किमर्थं तत्र एकः एव मनः नास्ति एकमेव मनः नास्ति किन्तु मनांसि सन्ति इति किमर्थम् इति अग्रिमे सप्ताहे पश्यामः. तत्र अग्रिमे सप्ताहे तत्र अतः आरभ्य पठामः तर्हि. अस्तु, समीचीनमस्ति. तत्र अद्य बहु किमपि चर्चितवन्तः. धन्यवादः भगिनि. अस्तु, धन्यवादः, नमस्कारः. अग्रिमे वर्गे मिलामः. नमस्कारः.
धन्यवादः.
धन्यवादः.
धन्यवादः.